इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य ब्रूनेय सिंगापुरदेशयोः त्रिदिवसीया यात्रा आरभते। ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सचिवः जयदीप मजूमदारः अवदत् यत् ब्रूनेय देशस्य सुल्तानस्य हाजी हसनल बोल्किया इत्यस्य आमन्त्रणे प्रधानमन्त्री सितम्बरमासस्य तृतीये चतुर्थे च दिनांके ब्रूनेय देशं गमिष्यति। सः अवदत् यत् भारतीय प्रधानमन्त्रिणः ब्रूनेय देशस्य एषा प्रथमा द्वैपाक्षिक यात्रा भविष्यति। भारत ब्रूनेय देशयोः मध्ये राजनीतिक सम्बन्धस्य स्थापनायाः चत्वारिंशत्तमे वार्षिकोत्सव अवसरे एषा यात्रा भविष्यति। सचिवः मजूमदारः अवदत् यत् यात्रायाः समये प्रधानमन्त्री मोदी ब्रूनेई देशेन सह द्विपाक्षिक सम्बन्धस्य सहकारस्य च सर्वासु विषयिक चर्चासु भागं ग्रहीष्यति तथा च सहयोगस्य नूतन क्षेत्राणाम् अन्वेषणं करिष्यति इति। श्रीमजूमदारः उल्लिखितवान् यत् सुल्तान हाजी हसनल बोल्किया द्विनवति उत्तर एकोनविंशतितमे वर्षे अष्टोत्तर द्विसहस्रतमे वर्षे च भारतस्य राजकीय यात्रां कृतवान्। द्वादशोत्तर द्विसहस्रतमे वर्षे अष्टादशोत्तर द्विसहस्रतमे वर्षे च आसियान भारत स्मारक शिखर सम्मेलने अपि भागं गृहीतवान्। सः इत्यपि अवदत् यत् भारतं स्वस्य अन्तरिक्ष कार्यक्रमे ब्रूनेई देशात् बहुमूल्यं समर्थनं प्राप्नोत्। रक्षाक्षेत्रे च द्विपाक्षिक सहयोगस्य अन्यः महत्वपूर्णः स्तम्भः अस्ति इति। सचिवः सूचितवान् यत् स्वस्य प्रवासस्य द्वितीये चरणे प्रधानमन्त्री स्वपक्षस्य लॉरेंस बोंग इत्यस्य आमन्त्रणे सितम्बर मासस्य चतुर्थे पञ्चमे दिनांके च सिंगापुरदेशं गमिष्यति। प्रधानमन्त्री मोदी प्रायः षड्वर्षाणाम् अनन्तरं सिंगापुरदेशं गच्छति। सः अवदत् यत् सिंगापुरदेशः आसियान देशे भारतस्य बृहत्तमः व्यापार सहभागी अस्ति, विदेशीय प्रत्यक्ष निवेशस्य प्रमुखः स्रोतः च अस्ति। केन्द्रसर्वकारेण द्वाविंशतितमस्य विधि आयोगस्य संघटनस्य अधिसूचना प्रसारिता। आयोगस्य कार्यकालः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य सितम्बरमासस्य प्रथमदिनात् सप्तविंशत्यधिकद्विसहस्रतमवर्षस्य अगस्तमासस्य एकत्रिंशद्दिनांकपर्यन्तं त्रीणि वर्षाणि यावत् भविष्यति। आयोगे पूर्णकालिकः अध्यक्षः सदस्य सचिवौ च समेत्य चत्वारः पूर्णकालिकसदस्याः भविष्यन्ति। विधि आयोगस्य सचिवः विधान विभागस्य सचिवः च पदेन आयोगस्य सदस्याः भविष्यन्ति। आयोगे पञ्च अंशकालिकसदस्याः भवितुमर्हन्ति। सर्वोच्चन्यायालये उच्चन्यायालये च सेवारताः न्यायाधीशाः विधि आयोगस्य अध्यक्षाः सदस्याः च भविष्यन्ति। अधिसूचनायाम् उक्तं यत् ते सर्वोच्चन्यायालयात् उच्चन्यायालयात् वा निवृत्तेः तिथौ वा आयोगस्य कार्यकालस्य समाप्तिपर्यन्तं वा पूर्णकालिकरूपेण स्वकार्यं कुर्वन्ति यत्किमपि पूर्वं भवेत्। भाजपेति दलस्य नेत्रा तथा च केन्द्रीय मन्त्रिणा जितेन्द्र सिंहेन उक्तं यत् जम्मू कश्मीरस्य निर्वाचनं लोकतान्त्रिक आकांक्षाभ्यः कीर्तिमत् स्वरूपेण अस्ति। ह्यः नवदिल्ल्यां वार्ताहर सम्मेलनं सम्बोधयन् मन्त्री केन्द्रशासितस्य स्वशासनाय विकासाय शक्तिकरणाय च दृष्टिकोणं प्रकटितवान्। सः उक्तवान् यत् निर्वाचनम् एकम् ऐतिह्यं महत्वपूर्णं च प्रक्रिया अस्ति। दशके प्रथमं वारं जम्मूकश्मीरे विधानसभा निर्वाचनं भविष्यति। सः जम्मूकश्मीरस्य महत्वाकांक्षी सप्तचत्वारिंशदधिक द्विसहस्रतमवर्षस्य दृष्टिकोणस्यापि अनावरणं कृतवान् इति वार्ताः।